एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य पञ्चभिः सचिवालय सदस्यैः तत्कालं केन्द्रीय सचिवालय उपवेशम् आह्वयितुम् प्रधानमन्त्री दलस्य अध्यक्षश्च केपी शर्मा ओली अनुरुद्धो वर्तते। ह्य अपराध्यक्षेणा पुष्पकमल दाहाल प्रचण्डेन सहितैः पञ्चभिः सचिवालय सदस्यैः वरिष्ठ नेतृद्वयेन झलनाथ खनालेन माधव कुमार नेपालेन च उपाध्यक्षेण वामदेव गौतमेन प्रवक्त्रा नारायणकाजी श्रेष्ठेन च प्रधानमन्त्री निवासम् बाल्वाटार स्थानम् प्राप्य अध्यक्ष ओली तत्कालम् उपवेशम् आह्वयितुम् अनुरुद्धोऽस्ति। पत्रकारैः भाषमाणः प्रवक्ता नारायणकाजी श्रेष्ठः अध्यक्ष प्रधानमन्त्री च ओली तत्कालम् सचिवालय उपवेशम् आह्वयितुम् लिखितरूपेण अनुरुद्धोऽस्तीति अज्ञापयत्। असौ अगदत् दलस्य स्थायि समित्या विहितस्य निर्णयस्य क्रियान्वयनेन सह दलैकताम् रक्षित्वा अग्रे वर्धनम् आवश्यकम् अस्तीति निगद्य विमर्शनाय सचिवालय उपवेशम् आह्वयितुम् अभियाचितमस्ति। सल्यान जनपदे ह्यो जीपयानम् दुर्घटितम् सद् जनत्रयम् मृतमस्ति। दाङ जनपदस्य तुलसीपुरात् रोल्पा जनपदस्य सुखा ओडार स्थानाय प्रस्थीयमानम् जीपयानम् सल्यान जनपदस्य छत्रेश्वरी ग्रामपालिकायाः चतुर्थवडा क्षेत्रस्थिते दिवाङ्ग घारी स्थाने दुर्घटितम् सद् रोल्पा जनपदस्य त्रयो जनाः मृताः इति सल्यान जनपद प्रहरी कार्यालयो ज्ञापयति। दुर्घटनायाम् मृतेषु यानचालकः रोल्पा जनपदस्य गंगादेव ग्रामपालिकायाः सप्तमवडा क्षेत्र निवासी पञ्चत्रिंशद् वर्षीयो भीमबहादुर वली, तस्यैव स्थानस्य सप्तदश वर्षीयो भीमराज बुढा, तस्याः ग्रामपालिकायाः पञ्चवडा क्षेत्र निवासी पञ्चषष्ठी वर्षीयो गंजबहादुर बुढा च सन्तीति प्रहरी प्रमुख गोविन्द थापा अबोधयत्। याने आरूढाः चत्वारो जनाः उत्प्लुत्य जीवितुम् सफलाः सन्ति। यानमेतत् मार्गात् शत मीटर मिताधो पतितम् वर्तते। एवमेव बैतडी जनपदे जीपयानम् दुर्घटितम् सद् एको जनः मृतोऽस्ति। जनपदस्य दोगडा केदार ग्रामपालिकायाः द्वितीयवडा क्षेत्रवर्तिनः सिल्लेगडा स्थानात् कफलकोट स्थानाय प्रस्थ्यमानम् बोलेरो जीपयानम् गतरात्रौ सपादाष्टवादने दुर्घटितम् आसीत्। जीपयान दुर्घटनायाम् त्रयस्त्रिंशद् वर्षकल्पः वीरबहादुर कुंवरः घटनास्थले एव मृत इति जनपद प्रहरी कार्यालयस्य प्रमुखः प्रहरी नायब उपरीक्षकः नारायण प्रसादः अधिकारी अज्ञापयत्। गतदिने अतिरिक्तेषु सहस्रद्वय त्रिपञ्चाशद् अधिक सप्तशते च जनेषु कोरोना विषाणोः संक्रमणम् पुष्टीभूतम् वर्तते। राष्ट्रस्य विभिन्नासु प्रयोगशालासु दश सहस्राणाम् त्रयोविंशत्यधिक चतुःशतस्य च निदर्शनानाम् परीक्षणम् विहितम् सत् सप्तसप्तत्यधिक सहस्रम् पुरूषाः षट्सप्तत्यधिक षट्शतम् महिलाश्चेति कृत्वा सहस्रद्वय त्रिपञ्चाशद् अधिक सप्तशते च जनेषु कोरोना संक्रमणम् पुष्टीभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् वर्तते। नेपाले अधुनावधि लक्ष्य एकनवत्यां सहस्रेषु षट्त्रिंशदधिक सप्तशते च जनेषु कोरोना विषाणोः संक्रमणम् पुष्टीभूतम् अस्ति। ह्य आराष्ट्रम् समग्रतः पञ्चत्रिंशत् सहस्राणि पञ्चत्रिंशदधिक चतुःशतम् च कोरोना विषाणुना सक्रिय संक्रान्ताः जनाः सन्ति। ह्य अतिरिक्ताः सप्तदश जनाः कोरोना विषाणोः संक्रमणस्य कारणेन अम्रियन्त। एतदनुसारेण नेपाले कोरोना विषाणोः कारणेन मृतानाम् जनानाम् इदानीन्तनि समग्र संख्या सप्ताशीत्यधिक सहस्रम् प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री योगेश भट्टराई ह्य ताप्लेजुङ जनपदस्य फक्ताङलुङ ग्रामपालिकायाः तृतीय वडा क्षेत्रस्य शिवा माध्यमिक विद्यालये संस्थापितम् सूचना प्रविधि केन्द्रम् उद्घाटयत्। चतुर्विंशत्याः सुसांख्योपकरणानाम् मुद्रणोपकरणस्य अन्तरसञ्जालस्य च व्यवस्थापनेन सहैव विद्यालये सूचना प्रविधि कक्षा संस्थापितो वर्तते विद्यालयेन ज्ञापितमस्ति। मन्त्रिणा भट्टराई इत्यस्य प्रयत्नेन एव आसन्नैककोटिरूप्यकाणाम् प्रविधिमैत्री शैक्षिक सामग्र्यः विद्यालयेन प्राप्ताः वर्तन्ते। तापक्रमस्य न्यूनीभवनेन सहैव काष्ठमण्डपोपत्यकया शैत्येषु देशस्य सर्वेषु भागेषु अधिकम् शैत्यम् अनुभूतमस्ति। जलवायु पूर्वानुमानमा शाखाया पश्चात्तन विवरणानुसारेण ह्य काष्ठमण्डपस्य न्यूनतमः तापक्रमः 10 डिग्री सेल्सियस परिमापितः आसीत्। अतः परम् कतिपय दिनानि आराष्टम् तापक्रमः निरन्तरम् न्यूनीभवनस्य क्रमे भवतीति जलवायुविद् प्रतिभा मानन्धर अज्ञापयत्। जुम्ला प्रवृत्तिषु हिमालय जनपदेषु शैत्यस्य वर्धनेन सैव प्रतिस्यायस्य श्वास प्रश्वासस्य च रुग्णः वर्धमानः वर्तन्ते। साम्प्रतं कोरोना महामार्याः अपि कारणेन कोरोना संक्रमणस्य प्रतिस्यायस्य च पार्थक्यं ज्ञातुं सर्वसाधारणेभ्यः काठिन्यं सम्भूतम् अस्तीति कर्णाली स्वास्थ्य विज्ञान प्रतिष्ठान शिक्षण चिकित्सालयस्य निर्देशकः डाक्टर मंगल रावलः अवोचत्। जुम्ला जनपद जलवायु विज्ञान कार्यालयस्य अनुसारेण ह्यः तापक्रमः शून्यात् एकेन न्यूनः डिग्री सेल्स परिमापितः आसीत्। दोलखा जनपदस्य प्रसिद्धे धार्मिके पर्यटकीय च क्षेत्रे कालिंचोक भगवत्याः मन्दिरे दर्शन पूजापाठ कार्याणि जनपद प्रशासन कार्यालयेन निषिद्धानि सन्ति। दोलखा जनपदे पश्चात्तन समये वर्धमानस्य कोरोना विषाणोः संक्रमणस्य कारणेन संकट व्यवस्थापन केन्द्रेण नित्यपूजां विहाय अन्येषां जनानां कृते दर्शन पूजापाठ कार्याणि पिधापितानि सन्तीति ज्ञापितं वर्तते। पाल्पा जनपदस्य रानीघाट स्थितायां कृष्णगण्डक्यां जलक्रीडायाः क्रमे निमज्य एको युवकः मृतः। तानसेन नगरपालिकायाः प्रथमवडा क्षेत्रस्य 22-वर्षीयो विनीतवश्यालः निमज्य मृतः इति प्रहरी ज्ञापयति। एवमेव सर्लाही जनपदस्य ईश्वरपुर नगरपालिकायां दूषित जल संचित गर्ते निमज्य 2-वर्षीयो बालकः मृतोऽस्ति। मृतकः पञ्चमवडा क्षेत्रस्य खुबलाल टोल वास्तव्यस्य विक्रम महतोभिदस्य 2-वर्षीय पुत्र राम प्रवेश महतोस्थिति प्रहरिणा ज्ञापितं वर्तते। नुवाकोट जनपदस्य बेलकोट गढी नगरपालिकायां कार्यरतेन स्थपतिना पर्वत पौडेलेन सहितं जनद्वयम् अधिकार दुरुपयोगानुसन्धानायोगेन ह्यो बट्टार बजार स्थानात् निगृहितमस्ति इति समाचारः।